ಓಂ ಶ್ರೀ ಗಣೇಶಾಯ ನಮಃ. ಓಂ ಶ್ರೀ ಸರಸ್ವತ್ಯೈ ನಮಃ. ಓಂ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ. ಸಮಸ್ತ ಜನ ಕಲ್ಯಾಣೇ ನಿರತಂ ಕರುಣಾಮಯಂ ನಮಾಮಿ ಚಿನ್ಮಯಂ ದೇವಂ ಸದ್ಗುರುಂ ಬ್ರಹ್ಮವಿತ್ವರಂ ಸದ್ಗುರುಂ ಬ್ರಹ್ಮವಿತ್ವರಂ. ತತ್ವಬೋಧ ಬೈ ಆದಿಶಂಕರಾಚಾರ್ಯ. ವಾಸುದೇವೇಂದ್ರ ಯೋಗೀಂದ್ರಂ
ವಾಸುದೇವೇಂದ್ರ ಯೋಗೀಂದ್ರಂ
ನತ್ವಾ ಜ್ಞಾನಪ್ರದಂ ಗುರುಂ
ನತ್ವಾ ಜ್ಞಾನಪ್ರದಂ ಗುರುಂ
ಮುಮುಕ್ಷೂಣಾಂ ಹಿತಾರ್ಥಾಯ
ಮುಮುಕ್ಷೂಣಾಂ ಹಿತಾರ್ಥಾಯ
ತತ್ವಬೋಧೋಭಿಧೀಯತೆ
ತತ್ವಬೋಧೋಭಿಧೀಯತೆ.
ಚುಗತರ್ ವಾಸುದೇವೇಂದ್ರ ಯೋಗೀಂದ್ರಂ ನತ್ವಾ ಜ್ಞಾನಪ್ರದಂ ಗುರುಂ ಮುಮುಕ್ಷೂಣಾಂ ಹಿತಾರ್ಥಾಯ ತತ್ವಬೋಧೋಭಿಧೀಯತೆ. ಸಾಧನ ಚತುಷ್ಟಯ ಸಂಪನ್ನಾಧಿಕಾರಿಣಾಂ
ಸಾಧನ ಚತುಷ್ಟಯ ಸಂಪನ್ನಾಧಿಕಾರಿಣಾಂ
ಮೋಕ್ಷ ಸಾಧನ ಭೂತಂ
ಮೋಕ್ಷ ಸಾಧನ ಭೂತಂ
ತತ್ವ ವಿವೇಕ ಪ್ರಕಾರಂ
ತತ್ವ ವಿವೇಕ ಪ್ರಕಾರಂ
ವಕ್ಷ್ಯಾಮಃ
ವಕ್ಷ್ಯಾಮಃ.
ಸಾಧನ ಚತುಷ್ಟಯ ಸಂಪನ್ನಾಧಿಕಾರಿಣಾಂ ಮೋಕ್ಷ ಸಾಧನ ಭೂತಂ ತತ್ವ ವಿವೇಕ ಪ್ರಕಾರಂ ವಕ್ಷ್ಯಾಮಃ. ಸಾಧನ ಚತುಷ್ಟಯಂ ಕಿಂ
ಸಾಧನ ಚತುಷ್ಟಯಂ ಕಿಂ
ನಿತ್ಯಾನಿತ್ಯ ವಸ್ತು ವಿವೇಕಃ
ನಿತ್ಯಾನಿತ್ಯ ವಸ್ತು ವಿವೇಕಃ
ಇಹಾಮುತ್ರಾರ್ಥ ಫಲ ಭೋಗ ವಿರಾಗಃ
ಇಹಾಮುತ್ರಾರ್ಥ ಫಲ ಭೋಗ ವಿರಾಗಃ
ಶಮಾದಿ ಷಟ್ಕ ಸಂಪತ್ತಿಃ
ಶಮಾದಿ ಷಟ್ಕ ಸಂಪತ್ತಿಃ
ಮುಮುಕ್ಷುತ್ವಂ ಚೇತಿ
ಮುಮುಕ್ಷುತ್ವಂ ಚೇತಿ.
ಸಾಧನ ಚತುಷ್ಟಯಂ ಕಿಂ ನಿತ್ಯಾನಿತ್ಯ ವಸ್ತು ವಿವೇಕಃ ಇಹಾಮುತ್ರಾರ್ಥ ಫಲ ಭೋಗ ವಿರಾಗಃ ಶಮಾದಿ ಷಟ್ಕ ಸಂಪತ್ತಿಃ ಮುಮುಕ್ಷುತ್ವಂ ಚೇತಿ. ನಿತ್ಯಾನಿತ್ಯ ವಸ್ತು ವಿವೇಕಃ ಕಃ
ವಸ್ತು ವಿವೇಕಃ
ನಿತ್ಯವಸ್ತ್ವೇಕಂ ಬ್ರಹ್ಮ
ನಿತ್ಯವಸ್ತ್ವೇಕಂ ಬ್ರಹ್ಮ
ತದ್ವ್ಯತಿರಿಕ್ತಂ ಸರ್ವಮನಿತ್ಯಂ
ತದ್ವ್ಯತಿರಿಕ್ತಂ ಸರ್ವಮನಿತ್ಯಂ
ಅಯಮೇವ ನಿತ್ಯಾನಿತ್ಯ ವಸ್ತು ವಿವೇಕಃ
ಅಯಮೇವ ನಿತ್ಯಾನಿತ್ಯ ವಸ್ತು ವಿವೇಕಃ
ನಿತ್ಯಾನಿತ್ಯ ವಸ್ತು ವಿವೇಕಃ ಕಃ ನಿತ್ಯವಸ್ತ್ವೇಕಂ ಬ್ರಹ್ಮ ತದ್ವ್ಯತಿರಿಕ್ತಂ ಸರ್ವಮನಿತ್ಯಂ ಅಯಮೇವ ನಿತ್ಯಾನಿತ್ಯ ವಸ್ತು ವಿವೇಕಃ ವಿರಾಗಃ ಕಃ ಇಹ ಸ್ವರ್ಗ ಭೋಗೇಷು ಇಚ್ಛಾರಾಹಿತ್ಯಂ
ಇಹ ಸ್ವರ್ಗ ಭೋಗೇಷು ಇಚ್ಛಾರಾಹಿತ್ಯಂ
ವಿರಾಗಃ ಕಃ ಇಹ ಸ್ವರ್ಗ ಭೋಗೇಷು ಇಚ್ಛಾರಾಹಿತ್ಯಂ ಶಮಾದಿ ಸಾಧನ ಸಂಪತ್ತಿಃ ಕ
ಶಮಾದಿ ಸಾಧನ ಸಂಪತ್ತಿಃ ಕ
ಶಮೋದಮ ಉಪರತಿಸ್ತಿ ದೀಕ್ಷಾ
శమోదమ ఉపరతి స్థితిక్షా
శ్రద్ధ సమాధానం చ ఇతి
శ్రద్ధ సమాధానం చ ఇతి
శమాది సాధన సంపత్తి కా శమోదమ ఉపరతి స్థితిక్షా శ్రద్ధ సమాధానం చ ఇతి శమః కః మనో నిగ్రహః శమః కః మనో నిగ్రహః దమః కః చక్షురాది బాహ్యేంద్రియ నిగ్రహః దమః కః చక్షురాది బాహ్యేంద్రియ నిగ్రహః ఉపరమః కః స్వధర్మానుష్ఠానమేవ ఉపరమః కః స్వధర్మానుష్ఠానమేవ తిదిక్షాకా శీతోష్ణ సుఖ దుఃఖాది సహిష్ణుత్వం తిదిక్షాకా శీతోష్ణ సుఖ దుఃఖాది సహిష్ణుత్వం శ్రద్ధాకీదృశీ గురు వేదాంత వాక్యాదిషు విశ్వాస శ్రద్ధ శ్రద్ధాకీదృశీ గురు వేదాంత వాక్యాదిషు విశ్వాస శ్రద్ధ సమాధానం కిం చిత్తైకాగ్రత సమాధానం కిం చిత్తైకాగ్రత ముముక్షుత్వం కిం మోక్షో మే భూయాద్ ఇది ఇచ్ఛా ముముక్షుత్వం కిం మోక్షో మే భూయాద్ ఇది ఇచ్ఛా ఏతత్ సాధన చతుష్టయం తతస్తత్వ వివేకస్యాధికారిణో భవంతి ఏతత్ సాధన చతుష్టయం తతస్తత్వ వివేకస్యాధికారిణో భవంతి తత్వ వివేకః కః ఆత్మా సత్యం తదన్యత్ సర్వం మిథ్యేతి తత్వ వివేకః కః ఆత్మా సత్యం తదన్యత్ సర్వం మిథ్యేతి ఆత్మా కః స్థూల సూక్ష్మ కారణ శరీరాద్వ్యతిరిక్తః పంచకోశాతీతః సన్ అవస్థాత్రయః సాక్షి సచ్చిదానందస్వరూపః సన్ యస్తిష్ఠతి స ఆత్మా ఆత్మా కః స్థూల సూక్ష్మ కారణ శరీరాద్వ్యతిరిక్తః పంచకోశాతీతః సన్ అవస్థాత్రయః సాక్షి సచ్చిదానందస్వరూపః సన్ యస్తిష్ఠతి స ఆత్మా స్థూల శరీరం కిం పంచీకృత పంచమహాభూతైః కృతం సత్కర్మజన్యం సుఖదుఃఖాది భోగాయతనం శరీరం అస్తి జాయతే వర్ధతే విపరిణమతే విపరిణమతే అపక్షీయతే
ಅಪಕ್ಷೀಯತೆ
ವಿನಶ್ಯತೀತಿ
ವಿನಶ್ಯತಿ ವಿನಶ್ಯತೀತಿ
ಷಡ್ವಿಕಾರವದೇತತ್ ಸ್ಥೂಲ ಶರೀರಂ
ಷಡ್ವಿಕಾರವದೇತತ್ ಸ್ಥೂಲ ಶರೀರಂ
ಸ್ಥೂಲ ಶರೀರಂ ಕಿಂ ಪಂಜೀಕೃತ ಪಂಚ ಮಹಾಭೂತೈಃ ಕೃತಂ ಸತ್ ಕರ್ಮಜನ್ಯಂ ಸುಖ ದುಃಖಾದಿ ಭೋಗಾಯತನಂ ಶರೀರಂ ಅಸ್ತಿ ಜಾಯತೆ ವರ್ಧತೆ ವಿಪರಿಣಮತೆ ಅಪಕ್ಷೀಯತೆ ವಿನಶ್ಯತೀತಿ ಷಟ್ವಿಕಾರವದೇತತ್ ಸ್ಥೂಲ ಶರೀರಂ. ಸೂಕ್ಷ್ಮ ಶರೀರಂ ಕಿಂ ಅಪಂಚೀಕೃತ ಪಂಚ ಮಹಾಭೂತೈಃ ಕೃತಂ ಸತ್
ಅಪಂಚೀಕೃತ ಪಂಚ ಮಹಾಭೂತೈಃ ಕೃತಂ ಸತ್
ಕರ್ಮಜನ್ಯಂ
ಸುಖದುಃಖಾದಿ ಭೋಗ ಸಾಧನಂ
ಪಂಚಜ್ಞಾನೇಂದ್ರಿಯಾಣಿ ಪಂಚಕರ್ಮೇಂದ್ರಿಯಾಣಿ ಪಂಚಪ್ರಾಣಾದಯಃ ಮನಶ್ಚೈಕಂ ಬುದ್ಧಿಶ್ಚೈಕ ಏವಂ ಸಪ್ತದಶ ಕಲಾಭಿಃ ಸಹ ಯಸ್ತಿಷ್ಠತಿ ಸೂಕ್ಷ್ಮಶರೀರಂ ಕಿಂ ಅಪಂಚೀಕೃತ ಪಂಚ ಮಹಾಭೂತೈಃ ಕೃತಂ ಸತ್ ಕರ್ಮಜನ್ಯಂ ಸುಖದುಃಖಾದಿ ಭೋಗಸಾಧನಂ ಪಂಚಜ್ಞಾನೇಂದ್ರಿಯಾಣಿ ಪಂಚಕರ್ಮೇಂದ್ರಿಯಾಣಿ ಪಂಚಪ್ರಾಣಾದಯಃ ಮನಶ್ಚೈಕಂ ಬುದ್ಧಿಶ್ಚೈಕ ಏವಂ ಸಪ್ತದಶ ಕಲಾಭಿಃ ಸಹ ಯತ್ತಿಷ್ಠತಿ ತತ್ ಸೂಕ್ಷ್ಮಶರೀರಂ. ಶ್ರೋತ್ರಂ ತ್ವಕ್ ಚಕ್ಷುಃ ರಸನಾಂ ಘ್ರಾಣಂ ಇದಿ ಪಂಚಜ್ಞಾನೇಂದ್ರಿಯಾಣಿ ಶ್ರೋತ್ರಸ್ಯ ದಿಗ್ದೇವತಾ ತ್ವಚೋ ವಾಯುಃ ಚಕ್ಷುಷಃ ಸೂರ್ಯಃ ರಸನಾಯ ವರುಣಃ ಘ್ರಾಣಸ್ಯ ಅಶ್ವಿನೌ ಇದಿ ಜ್ಞಾನೇಂದ್ರಿಯ ದೇವತಾಃ ಶ್ರೋತ್ರಸ್ಯ ವಿಷಯಃ ಶಬ್ದಗ್ರಹಣಂ ತ್ವಚೋ ವಿಷಯ ಸ್ಪರ್ಶಗ್ರಹಣಂ ಚಕ್ಷುಷೋ ವಿಷಯಃ ರೂಪಗ್ರಹಣಂ ರಸನಾಯ ವಿಷಯಃ ರಸಗ್ರಹಣಂ ಘ್ರಾಣಸ್ಯ ವಿಷಯಃ ಗಂಧಗ್ರಹಣಂ ಶ್ರೋತ್ರಂ ತ್ವಕ್ ಚಕ್ಷುಃ ರಸನ ಘ್ರಾಣಂ ಇದಿ ಪಂಚಜ್ಞಾನೇಂದ್ರಿಯಾಣಿ ಶ್ರೋತ್ರಸ್ಯ ದಿಗ್ದೇವತಾ ತ್ವಚೋ ವಾಯುಃ ಚಕ್ಷುಷಃ ಸೂರ್ಯಃ ರಸನಾಯ ವರುಣಃ ಘ್ರಾಣಸ್ಯ ಅಶ್ವಿನೌ ಇದಿ ಜ್ಞಾನೇಂದ್ರಿಯ ದೇವತಾಃ ಶ್ರೋತ್ರಸ್ಯ ವಿಷಯ ಶಬ್ದಗ್ರಹಣಂ ತ್ವಚೋ ವಿಷಯ ಸ್ಪರ್ಶಗ್ರಹಣಂ ಚಕ್ಷುಷೋ ವಿಷಯ ರೂಪಗ್ರಹಣಂ ರಸನಾಯ ವಿಷಯ ರಸಗ್ರಹಣಂ ಘ್ರಾಣಸ್ಯ ವಿಷಯ ಗಂಧಗ್ರಹಣಂ ಇತಿ. ವಾಕ್ ಪಾಣಿ ಪಾದ ಪಾಯೋಪಸ್ಥಾನೀತಿ ಪಂಚಕರ್ಮೇಂದ್ರಿಯಾಣಿ ವಾಚೋ ದೇವತಾ ವಹ್ನಿಃ ಹಸ್ತಯೋರಿಂದ್ರಃ ಪಾದಯೋರ್ವಿಷ್ಣುಃ पायोर मृत्युः
पायो मृत्युः
उपस्थस्य प्रजापतिः
उपस्थस्य प्रजापतिः
इति कर्मेन्द्रिय देवताः
इति कर्मेन्द्रिय देवताः
वाचो विषयः भाषणम्
वाचो विषयः भाषणम्
पाण्योर विषयः वस्तु ग्रहणम्
पाण्यो विषयः वस्तु ग्रहणम्
पादयोर विषयः गमनम्
पादयो विषयः गमनम्
पायोर विषयः मलत्यागः
पायोर विषयः मलत्यागः
उपस्थस्य विषयः आनन्द इति
उपस्थस्य विषयः आनन्द इति
वाक् पाणि पाद पायूपस्थानि इति पञ्चकर्मेन्द्रियाणि वाचो देवता वह्निः हस्तयोरिन्द्रः पादयोर्विष्णुः पायोर्मृत्युः उपस्थस्य प्रजापतिः इति कर्मेन्द्रियदेवताः वाचो विषयः भाषणम् पाण्योर विषयः वस्तु ग्रहणम् पादयोर विषयः गमनम् पायोर विषयः मलत्यागः उपस्थस्य विषयः आनन्द इति कारणशरीरं किम् अनिर्वाच्य अनाद्य अविद्या रूपम्
वाच्य अनाद्या अविद्या रूपम्
शरीरद्वयस्य कारणमात्रं सत्
शरीरद्वयस्य कारणमात्रं सत्
स्वरूपाज्ञानम्
स्वरूपाज्ञानम्
निर्विकल्पकरूपम्
निर्विकल्पकरूपम्
यदस्ति
यदस्ति
तत्कारणशरीरम् कारणशरीरं किम् अनिर्वाच्यनाद्य अविद्यारूपं शरीरद्वयस्य कारणमात्रं सत् स्वरूप अज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् अवस्थात्रयं किम् जाग्रत् स्वप्न सुषुप्त्यवस्थाः
जाग्रत् स्वप्न सुषुप्त्यवस्थाः
अवस्थात्रयं किम् जाग्रत् स्वप्न सुषुप्त्यवस्थाः जाग्रदवस्था का
जाग्रदवस्था का
श्रोत्रादि ज्ञानेन्द्रियैः
श्रोत्रादि ज्ञानेन्द्रियैः
शब्दादि विषयैश्च
शब्दादि विषयैश्च
ज्ञायते इति या
ज्ञायते इति या
सा जाग्रदवस्था
सा जाग्रदवस्था
स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते
स्थूल शरीर अभिमानी आत्मा विश्व इत्युच्यते
जाग्रदवस्था का श्रोत्रादि ज्ञानेन्द्रियैः शब्दादि विषयैश्च ज्ञायते इति या सा जाग्रदवस्था स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते स्वप्नावस्था केति चेत् जाग्रदवस्थायां
जाग्रदवस्थायां
यद्दृष्टं यत्श्रुतं
यद्दृष्टं यत्श्रुतं
तज्जनितवासनया
तज्जनितवासनया
निद्रासमये
निद्रासमये
यः प्रपञ्चः प्रतीयते
यः प्रपञ्चः प्रतीयते
सा स्वप्नावस्था सूक्ष्मशरीराभिमानी आत्मा
सूक्ष्मशरीराभिमानी आत्मा
तैजस इत्युच्यते
तैजस इत्युच्यते इत्युच्यते।
स्वप्नावस्था केति चेत् जाग्रदवस्थायां यद्दृष्टं यच्छ्रुतं तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा स्वप्नावस्था सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते। अथ सुषुप्त्यवस्था का अहं किमपि न जानामि सुखेन मया निद्रानुभूयते इति सुषुप्त्यवस्था कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते। अथ सुषुप्त्यवस्था का अहं किमपि न जानामि सुखेन मया निद्रानुभूयत इति सुषुप्त्यवस्था कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते। पञ्चकोशाः के अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति पञ्चकोशाः के अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति। अन्नमयः कः? अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्याम् यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् अन्नमयः कः? अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां यद्विलीयते तदन्नमयः कोशः स्थूलशरीरं प्राणमयः कः? प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकम् प्राणमयः कोशः प्राणमयः कः? प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः मनोमयः कोशः कः? मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति सः मनोमयकोशः कोशः मनोमयः कोशः कः? मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः विज्ञानमयः कः? बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः विज्ञानमयः कः बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः आनन्दमयः कः एवमेव कारणशरीरभूत अविद्यास्तमलिनसत्त्वम् प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः एतत्कोशपञ्चकम् आनन्दमयः कः एवमेव कारणशरीरभूताविद्यास्तमलिनसत्त्वं प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः एतत्कोशपञ्चकं मदीयं शरीरम् मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिः मदीयम् अज्ञानम् इति स्वेनैव ज्ञायते तद्यथा मदीयत्वेन ज्ञातम् कटककुण्डलगृहादिकं स्वस्मात् भिन्नम् तथा पञ्चकोशादिकं स्वस्मात् भिन्नम् मदीयत्वेन ज्ञातम् आत्मा न भवति मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिः मदीयम् अज्ञानम् इति स्वेनैव ज्ञायते तद्यथा मदीयत्वेन ज्ञातं कटककुण्डलगृहादिकं स्वस्मात् भिन्नं तथा पञ्चकोशादिकं स्वस्मात् भिन्नं मदीयत्वेन ज्ञातम् आत्मा न भवति आत्मा तर्हि कः सच्चिदानन्दस्वरूपः आत्मा तर्हि कः सच्चिदानन्दस्वरूपः सत् किम् कालत्रयेऽपि तिष्ठतीति सत् सत् किं कालत्रयेऽपि तिष्ठतीति सत् चित् किं ज्ञानस्वरूपः चित् किं ज्ञानस्वरूपः आनन्दः कः सुखस्वरूपः आनन्दः कः सुखस्वरूपः एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात्
एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात्
एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् अथ चतुर्विंशति तत्त्वोत्पत्तिप्रकारं वक्ष्यामः चतुर्विंशति तत्त्व उत्पत्तिप्रकारम् अथ चुगतर् अथ चतुर्विंशति तत्त्वोत्पत्तिप्रकारं वक्ष्यामः वन् मोर् टैम् अथ चतुर्विंशति तत्त्वोत्पत्तिप्रकारं वक्ष्यामः ब्रह्माश्रय सत्वरजस्तमोगुणात्मिका माया अस्ति।
ब्रह्माश्रय सत्वरजस्तमोगुणात्मिका माया अस्ति।
ब्रह्माश्रय सत्वरजस्तमोगुणात्मिका माया अस्ति। तद आकाशः संभूतः। आकाशात् वायुः। वायोस्तेजः। तेजस आपः। अद्भ्यः पृथिवी। तद आकाशः संभूतः। आकाशात् वायुः। वायोस्तेजः। तेजस आपः। अद्भ्यः पृथिवी। एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतम् जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतम् पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतं वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतं जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतं पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात् मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि संकल्प विकल्पात्मकं मनः निश्चयात्मिका बुद्धिः अहं कर्ता अहंकारः चिन्तनकर्तृ चित्तम् मनसो देवता चन्द्रमाः बुद्धेः ब्रह्मा अहंकारस्य रुद्रः चित्तस्य वासुदेवः एतेषां पञ्चतत्त्वानां समष्टि सात्विकांशात् मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि सङ्कल्पविकल्पात्मकं मनः निश्चयात्मिका बुद्धिः अहं कर्ता अहङ्कारः चिन्तनकर्तृ चित्तम् मनसो देवता चन्द्रमाः बुद्धेः ब्रह्मा अहङ्कारस्य रुद्रः चित्तस्य वासुदेवः एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् वायोः राजसांशात् पाणीन्द्रियं सम्भूतम्
वायोः राजसांशात् पाणीन्द्रियं सम्भूतम्
வன்னேஹ ராஜசாம்சாத் பாதேந்திரியம் சம்பூதம்.
வஹ்னேஹ ராஜசாம்சாத் பாதேந்திரியம் சம்பூதம்.
ஜலஸ்ய ராஜசாம்சாத் உபஸ்தேந்திரியம் சம்பூதம்.
ஜலஸ்ய ராஜசாம்சாத் உபஸ்தேந்திரியம் சம்பூதம்.
பிருத்வ்யா ராஜசாம்சாத் குதேந்திரியம் சம்பூதம்.
பிருத்வ்யா ராஜசாம்சாத் குதேந்திரியம் சம்பூதம்.
ஏதேஷாம் சமஷ்டி ராஜசாம்சாத் பஞ்ச பிராணாஹ சம்பூதாஹ.
ஏதேஷாம் சமஷ்டி ராஜசாம்சாத் பஞ்ச பிராணா சம்பூதாஹ.
ஏதேஷாம் பஞ்ச தத்வானாம் மத்யே ஆகாஷஸ்ய ராஜசாம்சாத் வாகிந்திரியம் சம்பூதம். வாயோஹோ ராஜசாம்சாத் பாணீந்திரியம் சம்பூதம். வன்னேஹே ராஜசாம்சாத் பாதேந்திரியம் சம்பூதம். ஜலஸ்ய ராஜசாம்சாத் உபஸ்தேந்திரியம் சம்பூதம். பிருத்வ்யா ராஜசாம்சாத் குதேந்திரியம் சம்பூதம். ஏதேஷாம் சமஷ்டி ராஜசாம்சாத் பஞ்ச பிராணாஸ் சம்பூதாஹ. ஏதேஷாம் பஞ்ச தத்வானாம் மத்யே தாமசாம்சாத் பஞ்சீகிருத பஞ்ச தத்வானி பவந்தி. பஞ்சீகரணம் கதம் இதி சேத். ஏதேஷாம் பஞ்ச மகாபூதானாம் தாமசாம்சஸ்வரூபம். ஏகமேகம் பூதம் த்விதா விபஜ்ய. ஏகமேகம் அர்த்தம் ப்ரதக் தூஷ்ணீம் வ்யவஸ்தாப்ய. அபரம் அபரம் அர்த்தம் சதுர்தா விபஜ்ய. ஸ்வார்த்தம் ஸ்வார்த்தம் அன்யேஷு அர்த்தேஷு ஸ்வபாக சதுஷ்டய சம்யோஜனம் காரியம். ததா பஞ்சீகரணம் பவதி. ஏதேப்யஃ பஞ்சீகிருத பஞ்ச மகாபூதேப்யஃ. ஸ்தூல சரீரம் பவதி. ஒன் மோர் டைம் யூ வில் டு ஓகே. ஏதேஷாம் பஞ்ச தத்வானாம் மத்யே தாமசாம்சாத் பஞ்சீகிருத பஞ்ச தத்வானி பவந்தி. பஞ்சீகரணம் கதம் இதி சேத். ஏதேஷாம் பஞ்ச மகாபூதானாம் தாமசாம்சஸ்வரூபம். ஏகமேகம் பூதம் த்விதா விபஜ்ய. ஏகமேகம் அர்த்தம் ப்ரதக் தூஷ்ணீம் வ்யவஸ்தாப்ய. அபரம் அபரம் அர்த்தம் சதுர்தா விபஜ்ய. ஸ்வார்த்தம் அன்யேஷு அர்த்தேஷு ஸ்வபாக சதுஷ்டய சம்யோஜனம் காரியம்.
ஸ்வபாக சதுஷ்டயம் சம்யோஜனம் காரியம்.
तदा पञ्जीकरणं भवति एतेभ्यः पञ्जीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति एतेषां पञ्चतत्त्वानां मध्ये तामसांशात् पञ्जीकृतपञ्चतत्त्वानि भवन्ति पञ्जीकरणं कथम् इति चेत् एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम् एकमेकं भूतं द्विधा विभज्य एकमेकमर्थं पृथक् तूष्णीं व्यवस्थाप्य अपरमपरमर्थं चतुर्धा विभज्य स्वार्थम् अन्येषु अर्थेषु स्वभागचतुष्टयसंयोजनं कार्यं तथा पञ्जीकरणं भवति एतेभ्यः पञ्जीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् स्थूलशरीराभिमानी जीवनामकं ब्रह्मप्रतिबिम्बं भवति स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति अविद्योपाधिः सन् आत्मा जीव इत्युच्यते मायोपाधिः सन् ईश्वर इत्युच्यते एवम् उपाधिभेदात् जीवेश्वर भेददृष्टिः यावत्पर्यन्तं तिष्ठति तावत्पर्यन्तं जन्म मरणादिरूपसंसारः न निवर्तते तस्मात् कारणात् न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या स्थूलशरीराभिमानी जीवनामकं ब्रह्मप्रतिबिम्बं भवति स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति अविद्योपाधिः सन् आत्मा जीव इत्युच्यते मायोपाधिः सन् ईश्वर इत्युच्यते एवम् उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यन्तं तिष्ठति तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते तस्मात् कारणात् न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ननु साहङ्कारस्य किञ्चिज्ञस्य जीवस्य निरहङ्कारस्य सर्वज्ञस्य ईश्वरस्य तत्त्वमसीति महावाक्यात् कथम् अभेदबुद्धिः स्यात् उभयोः विरुद्धधर्माक्रान्तत्वात् ननु साहंगारस्य किञ्जिज्ञस्य जीवस्य निरहंगारस्य सर्वज्ञस्य ईश्वरस्य तत्त्वमसीति महावाक्यात् कथम् अभेदबुद्धिः स्यात् उभयोः विरुद्धधर्माक्रान्तत्वात् इति चेत् न स्थूल सूक्ष्म शरीराभिमानी त्वं पदवाच्यार्थः उपाधिविनिर्मुक्तं समाधिदशा सम्पन्नं शुद्धं चैतन्यं त्वं पदलक्ष्यार्थः एवं सर्वज्ञत्वादि विशिष्ट ईश्वरः तत्पदवाच्यार्थः उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः एवं च जीवेश्वरयोः चैतन्यरूपेण अभेदे बाधकाभावः इति चेत् न स्थूलसूक्ष्मशरीराभिमानी त्वं पदवाच्यार्थः उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धं चैतन्यं त्वं पदलक्ष्यार्थः एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः एवं च जीवेश्वरयोः चैतन्यरूपेण अभेदे बाधकाभावः एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च
सर्वेष्वभिभूतेषु
येषां ब्रह्मबुद्धिरुत्पन्नात् ते जीवन्मुक्ता इत्यर्थः एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु येषां ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ता इत्यर्थः ननु जीवन्मुक्तः कः
यथा
देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयः तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असङ्गः सच्चिदानन्दस्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चयरूपः अपरोक्षज्ञानवान् जीवन्मुक्तः ननु जीवन्मुक्तः कः यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयः तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असङ्गः सच्चिदानन्दस्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चयरूपः अपरोक्षज्ञानवान् जीवन्मुक्तः ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तस्याद् ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तस्याद् कर्माणि कतिविधानि सन्तीति चेद् आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति कर्माणि कतिविधानि सन्तीति चेत् आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्मं यदस्ति तदागामीत्यभिधीयते ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्मं यदस्ति तदागामीत्यभिधीयते सञ्चितं कर्म किम् अनन्तकोटिजन्मनां बीजभूतं सत् यत् कर्मजातं पूर्वार्जितं तिष्ठति तत् सञ्चितं ज्ञेयम् सञ्चितं कर्म किम् अनन्तकोटिजन्मनां बीजभूतं सत् यत् कर्मजातं पूर्वार्जितं तिष्ठति तद् सञ्चितं ज्ञेयं प्रारब्धं कर्म किमिति चेत् इदं शरीरमुत्पाद्य इह लोके एव सुखदुःखादिप्रदं यत् कर्म प्रारब्धकर्मणां भोगादेव क्षय इति प्रारब्धं कर्म किमिति चेत् इदं शरीरमुत्पाद्य इहलोके एव सुखदुःखादिप्रदं यत् कर्म तत् प्रारब्धं भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षयः इति सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति आगामिकर्मम् अपि ज्ञानेन नश्यति किञ्च आगामिकर्मणां नलिनीदलगदजलवत्
नलिनी दलगत जलवत
ज्ञानीनां संबंधो नास्ति
ज्ञानीनां संबंधो नास्ति
आगामि कर्मम अपि ज्ञानेन नश्यति किञ्च आगामि कर्मणां नलिनी दलगत जलवत ज्ञानीनां संबंधो नास्ति किञ्च ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान् प्रति ज्ञानीकृतम् आगामि पुण्यं गच्छति ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान् प्रति ज्ञानीकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म पापात्मकं तद्गच्छति
तान् प्रति ज्ञानीकृतं सर्वमागामि क्रियमाणं
यदवाच्यं कर्म पापात्मकं तद्गच्छति किञ्च ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान् प्रति ज्ञानीकृतम् आगामि पुण्यं गच्छति ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान् प्रति ज्ञानीकृतं सर्वम् आगामि क्रियमाणं यदवाच्यं कर्म पापात्मकं तद्गच्छति सुहृदः पुण्यकृत्यं दुःहृदः पापकृत्यं गृह्णन्ति इति तथा च आत्मवित् संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति तरति शोकमात्मवित् इति श्रुतेः तनुं त्यजतु वा काश्यां स्वपचस्य गृहेऽथवा ज्ञानसम्प्राप्तिसमये मुक्तोऽसौ विगताशयः विगताशयः इति स्मृतेश्च तथा च आत्मवित् संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति तरति शोकमात्मवित् इति श्रुतेः तनुं त्यजतु वा काश्यां स्वपदस्य गृहेऽथवा ज्ञानसम्प्राप्तिसमये मुक्तोऽसौ विगताशयः इति स्मृतेश्च इति तत्त्वबोधप्रकरणं समाप्तम् वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुं मुमुक्षूणां हितार्थाय तत्त्वबोधोऽभिधीयते टुगेदर् वी विल् चेन्ट् दट् वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुं मुमुक्षूणां हितार्थाय तत्त्वबोधोऽभिधीयते।